Welcome to the audio-visual book reading of the original Panchatantra with the Sanskrit source and English translations. This is an undertaking of the Sanskrit channel. Story 1 of Book 1. And the stories begin.
Atha Mangalacharanam. Brahma Rudra Kumaro Hari Varuna Yama Vanhirindra Kuberaha Chandradityau Sarasvat Yudadhi Yuga Naga Vayururvi Bhujangaha Siddha Nadyoshvinau Shrir Diti Raditi Suta Mataras Chandikadya Vedas Tirthani Yaksha Gana Vasu Munayaha Pantu Nityam Grahascha Manave Vachaspataye Shukraya Parasharaya Sasutaya Chanakyaya cha Vidushe Namostu Nayashastra Kartrabhyaha Sakalartha Shastra Saram Jagati Samalokya Vishnu Sharmedam Tantraihi Panchabhiraita Chakara Sumanoharam Shastram Tadyathanu Shruyate Asti Dakshinatye Janapade Mahilaropyam Nama Nagaram Tatra Sakalarthi Kalpadrumaha Pravara Mukuta Mani Marichi Manjari Charchita Charana Yugalaha Sakala Kala Parangato Amara Shaktir Nama Raja Babhuva Tasya Trayaha Putraha Parama Durmedhaso Bahushaktihi Ugrashaktihi Anantashaktihi Cha Iti Namanu Babhuvuhu Atha Raja Tan Shastra Vimukhan Alokya Sachivan Ahuya Provacha Bhoho Jnatam etat Bhavadbhir Yanmamaite Trayopi Putraha Shastra Vimukha Viveka Hinascha Tadetan Pashyato Me Mahadapi Rajyam Na Saukhyam Avahati Athava Sadhvidamuchyate Ajata Mrita Murkhebhyo Mrita Jatau Sutau Varam Yatastau Svalpa Dukhaya Yavat Jivam Jado Dahet Varam Vandhya Bharya Varam Apicha Garbheshu Vasatihi Nacha Vidvan Rupa Dravina Guna Yuktopi Tanayaha Kim Taya Kriyate Dhenva Yana Sute Nadugdhada Kortha Putrena Jatena Yo na vidvan na bhaktiman. Tadetesham yatha buddhi prabodhanam bhavati tatha kopyupayo nushthiyatam. Atracha maddattam vrittim bhunjananam panditanam panchashati tishthati. Tato yatha mama manorathaha siddhim yanti tatha nushthiyatam iti. Tatraikaha provacha deva Dvadashabhir Varshair Vyakaranam Shruyate Tato Dharma Shastrani Manvadini Artha Shastrani Chanakyadini Kama Shastrani Vatsyayanadini Evancha Tato Dharma Artha Kama Shastrani Jnayante Tatah Pratibodhanam Bhavati Atha Tan Madhyatah Sumatir Nama Sachivah Praha Ashashvatoyan Jivitavya Vishayah Prabhuta Kala Gnyeyani Shabda Shastrani Tat Sankshepa Matram Shastram Kinchidetesham Prabodhanartham Chintyatam Iti Uktanchayataha Anantaparam Kila Shabda Shastram Svalpam Tathayur Bahavascha Vignaha Saran Tato Grahya Mapasya Phalgu Hamsair Yatha Kshira Mivambu Madhyat Tadatrasti Vishnu Sharma Nama Brahmanaha Sakala Shastra Parangamaha Chhatra Sansadi Labdhakirtihi Tasmai Samarpayatu Yetan Sa Nunam Drak Prabuddhan Karishyati Iti Sa Raja Tadakarnya Vishnu Sharmana Mahoya Provacha Bhoho Bhagavan Madanugraharthaam Etan Arthashastram Prati Drak Yatha Ananya Sadrishan Vidadhasi Tatha Kuru Tadaham Tvam Shashana Shatena Yojayishyami Atha Vishnu Sharma Tam Rajanamaha Deva Shruyatam Me Tathyavachanam नाहं विद्या विक्रयं शासन शतेनापि करोमि पुनरेतान् तव पुत्रान् मास षट्केन यदि नीतिशास्त्रज्ञान् न करोमि ततः स्वनाम त्यागं करोमि किं बहुना श्रूयतां मम एष सिंहनादः नाहमर्थलिप्सुर्ब्रवीमि मम आशीति वर्षस्य व्यावृत्त सर्वेन्द्रियार्थस्य न किञ्चिदर्थेन प्रयोजनं त्वत् प्रार्थना सिद्ध्यर्थं सरस्वती विनोदं कारयिष्यामि तल्लिख्यतामद्यतनो दिवसः यद्यहं षण्मासाभ्यन्तरे तव पुत्रान् नयशास्त्रप्रत्यनन्यसदृशान् न करिष्यामि ततो नार्हति देवो देवमार्गं सन्दर्शयितुम् अथासौ राजा तां ब्राह्मणस्यासंभाव्यां प्रतिज्ञां श्रुत्वा ससचिवः प्रहृष्टो विस्मयान्वितस्तस्मै सादरं तान् कुमारान् समर्प्य परां निर्वृतिम् आजगाम विष्णुशर्मणापि तान् आदाय तदर्थं मित्रभेद मित्रप्राप्ति काकोलुकीय लब्धप्रणाश अपरीक्षितकारकाणि चेति पञ्चतन्त्राणि रचयित्वा पाठिताः ते राजपुत्राः तेऽपि तानधीत्य मासषट्केन यथोक्ताः संवृत्ताः ततः प्रभृत्येतत् पञ्चतन्त्रं नाम नीतिशास्त्रं बालबोधनार्थं भूतले प्रवृत्तं किं बहुना अधीते य इदं नित्यं नीतिशास्त्रं शृणोति च न पराभवमाप्नोति शक्रादपि कदाचन इति कथामुखम्।